अथ अष्टमोऽध्यायः ध्यानम् ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणचापहस्ताम् अणिमादिभिरावृतां मयूखे रहमित्येव विभावये भवानीम् ॐ ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु शैतेष्वसुरेश्वरः ततः कोपपराधीनचेतः शुम्भः प्रतापवान् उद्योगम् सर्वसैन्यानाम् दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधा कम्बूनाम् चतुरशीतिर्निर्यान्तु स्वबलैर्विताः कोटिवीर्याणि पञ्चाशदसुराणाम् कुलानि वै शतम् कुलानि धूम्राणाम् निर्गच्छन्तु ममाज्ञया कालकादौ हृदा मौर्यः कालकेयास्तथा सुरा युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम इत्याज्ञाप्या सुरपतिः शुम्भो भैरवशासनः निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः आयान्तम् चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् जास्वनैः पूरयामास धरणी गगनान्तरम् ततः सिंहो महानादमतीव कृतवान् नृप घण्टास्वनेन तन्नादमम् विकाचोपगृह्णयत् धनुर्ज्या सिंहघण्टानाम् नादापूरितदिङ्मुखा निनादैर्भीषणैः काले चित्ते विस्तारितानना तम् निनादमुपसृत्य दैत्यसैन्यश्चतुर्दिशम् देवी सिंहस्तथा काली सरोषे परिवारिताः एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् हवायामरसिंहानामधीर्य बलान्विताः ब्रह्मेश गुः विष्णूनाम् कथेन्द्रस्य चक्षतया शरीरेभ्यो विनिष्क्रम्य तद्रूपेश्चण्डिकाम् ययुः यस्य देवस्य यद्रूपम् यथा भूषणवाहनम् तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलु आयाता ब्रह्मणः शक्तिर्ब्रह्माणि साभिधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योद्धुमभ्याययो दैत्यानम्बिका गुहरूपिणी तथैव वैष्णवी शक्तिर्गरुडो परिसंस्थिता शङ्खचक्रगदा सर्वखड्गहस्ताभ्युपाययौ यज्ञवाराहमतुलम् रूपम् या बिभ्रतो हरे शक्तिः साप्याययो तत्र वाराहीम् बिभ्रति तनुम् नारसिंहेन्द्रिसिंहस्य बिभ्रति सदृशम् प्राप्ता तत्र सटा क्षिप्तक्षिप्तनक्षत्रसंहतिः वज्रहस्ता तथैवेन्द्रि गजराजोपरि स्थिता प्राप्ता स सहस्रनयना यथा शस्त्रस्तथैव सा ततः परिवृतस्ताभिरीशानो देवशक्तिभिः हन्यन्तामसुराः शीघ्रम् मम प्रीत्याः चण्डिकाम् ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा चण्डिका शक्तिरत्युग्रा शिवा शतनिनादिनी सा चाह धूम्रजगिरमीशानमपराजिता भूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ब्रूहि शुम्भं निशुम्भं च दानवावति गर्वितौ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभताम् देवाः सन्तु हविर्भुजः यूयं प्रयात पातालम् यदि जीवितुमिच्छत बलावले पादथ चेत् भवन्तो युद्धकाङ्क्षिणः तदा गच्छत तृप्यन्तो मच्छिवा पिशिते नवः यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयं शिवदूतीति लोकेऽस्मिन् ततः साक्षादिमागता तेऽपि श्रुत्वा वचो देव्याः सर्वाख्यातम् महासुराः अमर्षा पूरिता जग्मुः यत्र कात्यायनी स्थिता ततः प्रथममेवाग्रे सरसकृष्टिवृष्टिभिः ववर्षुरुद्धतामरसास्ताम् देवी ममरारयः साचितान् प्रहितान् बाणान् शूरशक्तिपरस्वधान् चिक्षेदनीलयात्मात् धनु मुक्तैर्महेशुभिः तस्याग्रतस्तथा काले पाकविदारितान् षट्वाङ्गकोथितांश्चारीन् कुर्वति व्यचरत्तदा कमण्डलुजलाक्षेपहतवीर्यान् हतो जसः ब्रह्माणि चाकरोत् शत्रु येन येन स्म धावति माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवा ते दुर्विदारिताः कृत्याम् रुधिरौघप्रवर्षिणः कुण्डप्रहारविध्वस्ता लङ्काग्रच्छतवक्षसः वाराहमूर्त्यान्यपतम् चक्रेण च विदारितः नखैर्विदारितांश्चान्यान् भक्षयन्ति महासुरान् नारसिंहे चचाराजौ नादापूर्णदिगम्बरा चण्डाचहासरसुरा शिवदूत्यभिदूषिता केतु पृथिव्याम् पतिताम् स्तां चखादाथ सा तदा इति मातृगणम् क्रुद्धम् मर्दयन्तम् महासुरा दृष्ट्वाभ्युपायैर्विविधैर्नेषुर्देवारिसैनिकाः पलायन् परान् दृष्ट्वा दैत्यान् मातृगणार्दितान् युद्धुमध्याययो क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्याम् तत्प्रमाणस्तदासुरः युयुधे स गदा पाणिरिन्द्रशक्त्या महासुरः ततश्चैन्द्रिक्ष्व विश्ववज्रेण रक्तबीजमताडयत् पुलिसेनाहतस्याशु बहु शुश्रावशोणितम् समुत्तस्थुस्ततो योधास्तद्रूपा सत्पराक्रमाः यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ते चापि युयुधूस्तत्र पुरुषा रक्तसम्भवाः समम् माद्रिभिरत्युग्रशस्त्रपातादिभीषणम् पुनश्च वज्रपातेन क्षतमास्य शिरो यदा भवाः रक्तम् पुरुषास्ततो जाता सहस्रशः वैष्णवी समरे जैनम् चक्रेणाभिजघानः गदया ताडयामास इन्द्रे तम् सुरेश्वरम् वैषवी चकभिन्नस्य रुदिराश्रावसुम्भवे सहस्रशो जगद्व्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्या जघान कौमारी वाराही च तथासिना माहेश्वरी त्रिशूलेन रक्तबीजम् महासुरम् स चापि गदया दैत्याः सर्वा देवाहन पृथक् मातृः कोपसमाविष्टो रक्तबीजो महासुरः तस्य बहुधा शक्तिशूलादिभिर्भुवि पपातयो वैरक्तौघस्तेना संक्षतशोऽसुरः तैश्चासुरासृक्सम्भूतैरसुरैः सकलम् जगत् व्याप्तमासीत् ततो देवभयमजसुरोत्तमम् तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा उवाच कालीम् च मुण्डे विस्तीर्णम् वदनम् कुरु मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् रक्तबिन्दो प्रतीक्षत्वम् वक्त्रेणानेन वेगिना रक्षयन्ति चररणे तदुत्पन्नान् महासुरान् एवमेष क्षयम् दैत्यः क्षीणरक्तो गमिष्यति भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे इत्युक्त्वा ताम् ततो देवी शूलेनाभिजघानतम् मुखेन काली च गृहे रक्तबीजस्य शोणितम् ततो सा वा जघानाथ गदया तत्र चण्डिकाम् न चास्या वेदनाम् चक्रे गदा पातोल्पिकामपि तस्या हतस्य देहात्तु बहु शुश्रावशोणितम् यतस्ततस्तद्वस्त्रेण चामुण्डा सम्प्रपृच्छति मुखे समुद्गता ये स्यात् रक्तपातान् महासुराः तान् सखादाथ चामुण्डा पपौ तस्य च शोणितम् देवी शूलेन वज्रेण बाणे रसिभिर्वृष्टिभिः जघान रक्तबीजम् तम् चामुण्डापीठशोणितम् अपपातमही पृष्ठे शस्त्रसङ्घसमाहतः वीरकष्टमहीपाल रक्तबीजो महासुरः ततस्ते हर्षमतुलमवापुष्टिदशानिप तेषाम् मातृगणो जातो ननर्तासिंहमदोद्धतः ॐ श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्मे अष्टमः श्री दुर्गार्पणमस्तु श्री दुर्गार्पणमस्तु श्री दुर्गार्पणमस्तु।